पाण्डवाश्चैव किं कुर्वत् सञ्जय धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सव मामका पाण्डवाश्चैव किं कुर्वत् सञ्जय
Thank you.
सदावाक्यम् इदमाहमही पते सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत ऋषिकेशं तदावाक्यम् 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 इदमाहमही पते सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत पार्थ पश्यैतान् समवेतान् कुरुनिति भीष्म द्रोण प्रमुखतः सर्वेषां च महीक्षितान् उवाच पार्थ पश्यैतान् समवेतान् कुरुनिति तत्रापश्यत् स्थितान् पार्थ पितृनथ पितामहान् आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन् सता तत्रापश्यत् स्थितान् पार्थ पितृनथ पितामहान् तान् पार्थ पितृनथ पितामहान् आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन् सता तत्रापश्यत् स्थितान् पार्थ पितृनथ पितामहान् तान् पार्थ पितृनथ पितामहान् आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन् सता श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् श्वशुरान् सुहृदश्चैव सेनयो कौन्तेय सर्वान् बन्धूनवस्थितान् श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धूनवस्थितान् श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् कृपया परयाविष्टो विषीदन्निदमब्रवीत् दृष्ट्वेमौ स्वजनम् कृष्ण युयुत्सम् समुपस्थितम् कृपया परयाविष्टो विषीदन्निदमब्रवीत् दृष्ट्वेमौ स्वजनम् कृष्ण युयुत्सम् Tres वर्तितुम् कुलक्षयकृतं दोषं प्रपश्यत् हिर्जनार्दन कुलक्षये
दुष्टासु वार्ष्णेय जायते वर्ण ಮಾಮ ಪ್ರತೀಕಾರಂ ಆಶಸ್ತ್ರಂ नाम प्रथमोऽध्यायः।